इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना असम राज्यस्य गुवाहाटी नगरे लोकप्रिय गोपीनाथ वार्दोलोई अन्ताराष्ट्रिय विमानस्थानकस्य नूतनं टर्मिनल भवनम् उद्घाटितम्। प्रधानमन्त्री नरेन्द्र मोदी पश्चिम बंगाल राज्ये प्रायः 200-300 कोटि रूप्यकाणां राष्ट्रिय राजमार्ग परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान्। विदेश मंत्री डॉ एस जयशंकरः अवदत् यत् विकसित भारतस्य कृते विदेश नीतिः महत्वाकांक्षी भवितुमर्हति, यस्मिन् भारतस्य वैश्विक स्थितिं सुदृढं कर्तुं यथाशक्ति मित्र राष्ट्राणां समावेशस्य आवश्यकतायाः विषये अवधानं च दत्तवान्। भारतस्य विद्युत् निर्यातः अस्मिन् वित्तवर्षस्य प्रथमाष्टमासेषु 31 कोटि डॉलर मितं प्राप्नोत्। पाकिस्तानस्य न्यायालयेन अद्य तोषखाना द्वितीय इत्याख्यस्य भ्रष्टाचार प्रकरणे पूर्वमेव कारावासे स्थितं पूर्व प्रधानमन्त्रिणम् इमरान खानं, तस्य पत्नीं बुशरा बीबी इत्यस्यै च 17-17 वर्षाणां कारावासस्य दण्डः प्रदत्तः। अपि च बीसीसीआई इत्यनेन अद्य आगामि आईसीसी 20-20 विश्वचषक क्रीडायाः कृते 15 क्रीडकानां दलस्य घोषणा कृता। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्र मोदिना अद्य अपराह्णे असम राज्यस्य गुवाहाटी नगरे लोकप्रिय गोपीनाथ वार्दोलोई अन्ताराष्ट्रिय विमानस्थानकस्य नूतनं टर्मिनल भवनम् उद्घाटितम्। सः असमराज्यस्य प्रथम मुख्यमन्त्रिणः गोपीनाथ बारदोलोई वर्यस्य नाम्ना स्थापितस्य विमानस्थानकस्य नूतनस्य टर्मिनल भवनस्य बहिः तस्य प्रतिमायाः अनावरणमपि कृतवान्। गुवाहाटीनगरे जनसमूहं सम्बोधयन् सः अवदत् यत् अद्य विकासस्योत्सवदिवसः अस्ति, पुनः असमराज्यस्य विकासेः नूतनः अध्यायः योजितः अस्ति। सः अवदत् यत् अद्य न केवलम् असमराज्यस्य अपि तु सम्पूर्णस्य पूर्वोत्तरस्य विकासस्य उत्सवः अस्ति।
असम विकास का उत्सव मना रहा है। असम की धरती से मेरा लगाव, यहाँ के लोगों का प्यार और स्नेह और खासकर असम और पूर्वोत्तर की मेरी माताओं बहनों का अपनापन, ये मुझे निरंतर प्रेरित करते हैं। पूर्वोत्तर के विकास के हमारे संकल्प को ताकत देते हैं। मैं देख रहा हूं आज एक बार फिर असम के विकास में नया अध्याय जुड़ रहा है।
अवधेयम् यत् प्रधानमंत्री असम राज्यस्य द्विदिवसीय यात्रायां गुवाहाटी नगरं प्राप्तवान्। स्वयात्रावधौ श्रीमोदी प्रायः 15-15 कोटि रूप्यकाणां अनेकाशां परियोजनानां उद्घाटनम् अनावरणं च करिष्यति, जनसभां च सम्बोधयिष्यति। प्रधानमन्त्री श्रीमोदी पश्चिम बंगाल राज्यस्य नदिया जनपदस्य राणाघाट इत्यत्र प्रायः 200-300 कोटि रूप्यकाणां राष्ट्रिय राजमार्ग परियोजनानां शिलान्यासम् उद्घाटनं च कृतवान्। नदिया मण्डले राष्ट्रिय राजमार्ग 34 इत्यस्य बाराजगुली कृष्णानगर खण्डस्य 7.66 किलोमीटर परिमितस्य सुदीर्घस्य चतुष्पथस्य उद्घाटनम् अकरोत्। सः राज्यस्य उत्तर 24 परगना मण्डले राष्ट्रिय राजमार्ग 34 इत्यस्य 7.77 किलोमीटर परिमितस्य सुदीर्घस्य बाराजगुली खण्डस्य चतुष्पथस्य निर्माणस्य शिलान्यासमपि कृतवान्। अनया योजनया कोलकाता सिलिगुड़ी नगरयोः मध्ये यात्राकालं प्रायः होराद्वयं यावत् न्यूनं भविष्यति, येन वाहनानां द्रुतगत्या सुगम सञ्चारश्च सुनिश्चितः भवति। श्रीमोदी अवदत् यत् परियोजनाभिः अस्य प्रदेशस्य आर्थिक वृद्धिः अपि प्रवर्धिता भविष्यति, सम्पूर्णे प्रदेशे पर्यटनस्य वृद्धिः चापि प्रवर्धिता भविष्यति।
हमारी सरकार का निरंतर प्रयास है कि पश्चिम बंगाल के उन हिस्सों को भी आधुनिक कनेक्टिविटी मिले जो लंबे समय तक वंचित रहे हैं। बराजगुली से कृष्णानगर तक फोर लेन बनने से नॉर्थ 24 परगना, नदिया, कृष्णानगर और अन्य क्षेत्रों के लोगों को बहुत लाभ होगा। इससे कोलकाता से सिलीगुड़ी की यात्रा का समय करीब 2 घंटे तक कम हो गया है।
अद्य कोलकाता नगरात् दूरभाषमाध्यमेन नदिया जनपदस्य ताहिरपुरे परिवर्तन संकल्प सभां संबोधयन् प्रधानमन्त्रिणा आरोपितं यत् भ्रष्टाचारेण परिवारवादेन तुष्टिकरणेन च राज्यस्य विकासः अवरुद्धः। सः आरोपितवान् यत् ममता बनर्जी नेतृत्वे दलं प्रवर्तमानस्य SIR अभ्यासस्य विरोधं करोति। पूर्वं प्रधानमन्त्रिणः उदग्रविमानस्य कार्यक्रमस्थले अवतरणं सघननिहारेण वादितम्। विदेशमन्त्री डॉ एस जयशंकरः अवदत् यत् विकसित भारतस्य कृते विदेशनीतिः महत्वाकांक्षी भवितुमर्हति, यस्मिन् दीर्घकालीन विस्तारः योजनाः भवेयुः। सः भारतस्य वैश्विकस्थितिं सुदृढं कर्तुं यथाशक्ति मित्रराष्ट्राणां समावेशस्य आवश्यकतायाः विषये अवधानं प्रदत्तवान्। विदेशमन्त्रिणा डॉ एस जयशंकरेण प्रोक्तं यत् विश्वस्य आर्थिक राजनैतिक व्यवस्थायां महत् परिवर्तनं जातम्, यस्मिन् शक्तेः प्रभावस्य च अनेकानि केन्द्राणि उद्भूतानि सन्ति। पुणे नगरे एकस्मिन् दीक्षांत समारोहे सम्बोधयन् तेन प्रोक्तं यत् एतत् परिवर्तनं देशानां मध्ये अद्वितीयतायाः वैभवीकरणं कृतवान्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन AIR चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। विद्युत सूचना प्रौद्योगिकी मंत्री अश्विनी वैष्णवः अद्य अवदत् यत् भारतस्य विद्युत निर्यातः अस्मिन् वित्तवर्षस्य प्रथमाष्टमासेषु 130 कोटि डॉलर मितं प्राप्नोत्। सामाजिकान्तर्जालीय सन्देशे आंग्ल वृत्तपत्रस्य लेखनं प्रकटीकुर्वन् मन्त्री अवदत् यत् वर्तमान वित्तवर्षे भारतस्य शीर्ष 30 निर्यातवस्तुषु इदं क्षेत्रं सर्वाधिकं द्रुतगत्या वर्धमानास्ति, यत्र प्रतिवर्षं 38% वृद्धिः दृश्यते। पाकिस्तानस्य न्यायालयेन अद्य तोषखाना द्वितीय इत्याख्यस्य भ्रष्टाचार प्रकरणे पूर्वमेव कारावासे स्थितं पूर्व प्रधानमन्त्रिणम् इमरान खानं, तस्य पत्नीं वुशरा बीबी इत्यस्यै च प्रत्येकं 17-17 वर्षाणां कारावासस्य दण्डः प्रदत्तः। इदं प्रकरणं राज्य उपहाराणां कथित भ्रष्टाचारस्य विषये अस्ति, यत् उभाभ्याम् 21-2000 वर्षे सऊदी सर्वकारेण प्रदत्तमासीत्। विशेष न्यायालयस्य न्यायाधीशः शाहरुख अर्जुमन्दः रावलपिण्डी नगरस्य उच्च सुरक्षा युक्ते आदियाला कारागारे अस्मिन् प्रकरणे निर्णयोऽयं प्रदत्तवान्। न्यायालयेन तयोः प्रत्येकस्मै 64,00,000+ पाकिस्तानी रूप्यकाणां च दण्डः अपि प्रदत्तः। नवदिल्ली नगरे परिधान निर्यात प्रबन्धन परिषदः पुरस्कारान् सम्बोधयन् उपराष्ट्रपतिः CP राधाकृष्णन अद्य अवदत् यत् वस्त्रव्यवसायः देशस्य आर्थिकवृद्धेः महत्वपूर्णः स्तम्भः अस्ति। सः अवोचत् यत् भारतं विश्वस्य 6th वस्त्रनिर्यातकः अस्ति, यत् देशस्य विकासगाथायां वस्त्रोद्योगस्य प्रमुखयोगदानस्य प्रमाणमस्ति। केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री जगत प्रकाश नड्डा नवदिल्ल्यां नव उद्घाटितस्य विश्व स्वास्थ्य संघटनस्य दक्षिण पूर्व एशिया क्षेत्रीय कार्यालयस्य भ्रमणं कृतवान्। श्रीनड्डा दक्षिण पूर्व एशिया क्षेत्रस्य देशानां मन्त्रिभिः वरिष्ठ प्रतिनिधिभिः सह च वार्तालापम् अकरोत्। जनसमूहं सम्बोधयन् मन्त्री अवदत् यत् विश्व स्वास्थ्य संघटनस्य दक्षिण पूर्व एशिया क्षेत्रीय कार्यालयस्य भवनं न केवलं भौतिकं संरचना अस्ति, अपि तु दक्षिण पूर्व एशिया क्षेत्रस्य जनानां संयुक्त आकांक्षाणां सामूहिक संकल्पस्य च प्रबल प्रतीकमस्ति। भारत ऋतु विभागेन पश्चिम हिमालयीय प्रदेशे आगामी 4 दिनानां कृते हिमपातस्य पूर्वानुमानं कृतमस्ति। श्वः जम्मू कश्मीर लद्दाख प्रदेशयोः पृथक् पृथक् स्थानेषु प्रचण्ड हिमपातः भवितुमर्हति इति विभागेन सूचितम्। विभागेन उक्तं यत् श्वः प्रातः पर्यन्तं दिल्ल्याम्, उत्तराखण्डे, हरियाणायां, चण्डीगढे, पश्चिम उत्तरप्रदेशे, उत्तरमध्यप्रदेशे, बिहारे च सघननिहारस्य स्थितिः भवितुमर्हति। भारतस्य क्रिकेट नियन्त्रण मण्डलेन BCCI इत्यनेन अद्य आगामि ICC 20-20 विश्व चषक क्रीडायाः कृते 15 क्रीडकानां दलस्य घोषणा कृता इति वार्ताः।